ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ गुरुभ्यो नमः
सर्वेभ्यो नमः धन्यवादः भगिनी सर्वेभ्यो नमः स्वागतम् अस्मिन् वर्गे अत्र अस्माकं प्रवर्तमानः विषयः अस्ति सर्वन् नाम शब्दाः इति तस्मिन् विषये वयं गतवर्गे एकां कथाम् आरम्भं कृतवन्तः तत्र अद्य अपि पुनरेकवारम् आरम्भतः तां कथां पठामः इदानीं तत्र कथा अस्ति पुटसङ्ख्या 49 मध्ये तत्र नरेश् महोदय आरम्भं करोति वा
आं महोदय 49 तथा अस्ति गहना कर्मणो गतिः सर्वनामशब्दाः एतां कथाम् उच्चैः पठत अवगच्छत च महाभारतयुद्धं परिसमाप्तं भीष्मः शरशय्यायाम् आसीत् सर्वः युद्धपरिसरः गजाश्वनरजीवानां मृतशरीरैः भूयिष्ठः आसीत् तस्मिन् युद्धे मृतानां शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् युधिष्ठिरः सः अनुजैः सह भीष्मस्य सन्निधिं गतवान् तं नमस्कृत्य उक्तवान् पितामहः अस्य सर्वस्य विनाशस्य कारणम् अहमेव ननु भवतः अस्याः दुर्दशायाः कारणमपि अहमेव खलु न जानामि अहं कीदृशीं दुर्गतिं प्राप्स्यामि इति
हा समीचीनं महोदय अस्तु इदानीं तत्र किञ्चित् तत्र नरेश् महोदय तत्र यत् पठितवान् तत्र प्रायशः प्रथमवाक्यत्रयं तत्र आसीत् युधिष्ठिरः तावत्पर्यन्तं किञ्चित् विवृणोति वा
आम्
गीताञ्जलि भगिनी नमस्कारः अथवा रघुपति महोदय वा
नमस्ते महोदय
रघुपति महोदय नमस्कारः नमस्कारः महोदय पुटसङ्ख्या 49 अस्ति महोदय
अस्तु महोदय
अस्तु नरेश् महोदय
महाभारतयुद्धम् अनन्तरं
परिसमाप्तं परिसमाप्तम् इत्युक्ते तत्र कृतं तद् अभवत्
तदभवत्
इदानीं युद्धः युद्धं नास्ति इदानीं युद्धं नास्ति परिसमाप्तमस्ति विशेषणं महाभारतयुद्धस्य विशेषणं परिसमाप्तम् तत्र क्रियापदम् आसीत् इति स्थापितुं शक्नुमः इदानीम् अग्रे
भीष्मः शरशय्यायाम् आसीत् सः शर
इति तत् एतादृशं वाक्यं वदतु भीष्मस्य शय्या कीदृशी आसीत्
शरशय्या अस्ति
हा शराणां
शराणां शय्या आसीत्
हा शराणां कृता शय्या आसीत् हा शराणां कृता शय्या आसीत् भीष्मस्य
सर्वः युद्धपरिसरः गजाश्व नरजीवानां मृतशरीरैः भूयिष्ठः आसीत् तत्र युद्धपरिसरे मृतशरीराणि शरीराः आसीत्, गजः, अश्वः, नरः, सर्वे जीवानि मृता सन्ति तत्र.
हा तत्र हा भूयिष्ठः तत्र सर्वत्र आसीत् इति तत् तत्र किम् अन्यत् किं वक्तुं शक्नुमः? तत्र आवृतः आसीत् अथवा तत्र सम्पूर्णः मृतशरैः तत्र युद्धपरिसरः सम्पूर्णः आसीत्, तत्र अनेकाः तत्र अनेकानि शरीराणि तत्र आसन् इति मृतशरी आसन् सर्वत्र शरीराणि एव दृश्यन्ते इति
सर्वत्र युद्धपरिसरे
हा युद्धपरिसरे सर्वत्र तत्र शरीराणि एव दृश्यन्ते. अग्रे
तस्मिन् युद्धे मृतानां शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् युधिष्ठिरः. युधिष्ठिरः तत्र गतवान्, सः चिन्ताकुलः आसीत्
दृष्ट्वा
मृतानां शरीराणि दृष्ट्वा.
हा शरीराणि दृष्ट्वा सः चिन्ताकुलः आसीत्. कुत्र मृताः जनाः तत्र
युद्धपरिसरे
युद्धे हा तत्र महाभारतयुद्धे यत् अभवत् तस्मिन् युद्धे ये एताः मृताः तत्र तेषां युद्धे मृतानां शरीराणि सः दृष्ट्वा सः चिन्ताकुलः चिन्तामग्नः अथवा खिन्नः इति आसीत् युधिष्ठिरः. समीचीनं महोदय, अस्तु अस्तु समीचीनम् अस्तु. अग्रे शुभदा भगिनि.
सः अनुजैः सह भीष्मस्य सन्निधिं गतवान्. सः अनुजैः सह इत्युक्ते अनुजैः इत्युक्ते तस्य चत्वारः अनुजाः सन्ति आसन् तस्य चत्वारः अनुजाः आसन् तैः सह भीष्मस्य समीपं गतवान्. तं नमस्कृत्य उक्तवान्, पितामह, अस्य सर्वस्य विनाशस्य कारणम् अहमेव ननु. सः नमस्कारं कृत्वा नमस्कृत्य इत्युक्ते नमस्कारं कृत्वा सः भीष्मः क्षम्यतां युधिष्ठिरः उक्तवान् पितामह सम्बोधनार्थं, अस्य सर्वस्य विनाशस्य कारणम् अहमेव ननु. विनाशः इति अकारान्तपुल्लिङ्गशब्दः, तस्य षष्ठीविभक्ति एकवचनं, तस्य विशेषणानि अस्य सर्वस्य इति सर्वनामानि विशेषणानि भवति विनाशस्य इति शब्दस्य. अस्य सर्वस्य विनाशस्य कारणम् अहमेव इति सः चिन्तयति. भवतः अस्याः दुर्दशायाः
अस्य सर्वस्य विनाशस्य इति च तत्र विभक्ति का षष्ठीविभक्ति एकवचनम्. इदानीं तत्र प्रथमविभक्ति एकवचनरूपं किं भवति?
अयं सर्वः विनाशः.
हा अयं सर्वः विनाशः, समीचीनं भगिनि. हा अयं सर्वः विनाशः, अयम् इत्युक्ते इदानीं तत् नूतनपदम् अस्ति, किन्तु अयम् इत्युक्ते एषः, अयम् इत्युक्ते यः एषः एषः समीपे अस्ति एषः इति अर्थे तत्र अयम् अयं सर्वः विनाशः, एषः सर्वः विनाशः अथवा एतस्य इति स्थाने अस्य इति इदानीं नूतनरूपं नूतनपदम् अपि विकल्पेन तत्र एषः वा अथवा अयं वा तत्र हा केवलं तत्र बहुवारम् एषः एषः इति वदामश्चेत् तत्र तत्र सर्वेभ्यो न रोचते खलु, अतः अयम् इति मध्ये मध्ये स्थापयामः तावदेव. हा, किन्तु अन्य अंशः तत्र सः अनुजैः, चत्वारः अनुजाः सन्ति इति भवत्या उक्तं, तत्र चत्वारः इति तत्र पदस्य तत्र चत्वारः अनुजाः, किन्तु तृतीयविभक्तिरूपं किं भवति? अनुजैः इति अस्ति, तस्य तस्मात् पूर्वं चत्वारः इति
चतुर्भिः इति अहं मन्ये.
हा, समीचीनं भगिनि, चतुर्भिः, 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 हा, ऊहा समीचीना. अतः सः चतुर्भिः अनुजैः सह
भीष्मस्य
गतवान्, समीपं गतवान्, समीचीनं भगिनि. हा, अस्तु, अग्रे भवतः.
भवतः अस्याः दुर्दशायाः कारणमपि अहमेव खलु. भवतः इति भवत्शब्दस्य षष्ठीविभक्ति एकवचनं. भवतः अस्याः दुर्दशायाः, दुर्दशा इति आकारान्तस्त्रीलिङ्गं स्त्रीलिङ्गपदं, तस्य अपि षष्ठीविभक्ति एकवचनं. अस्याः इति इदं शब्दस्य
तत्र प्रथमाविभक्ति अस्मिन् अध्याये नास्ति, किन्तु पेज् 56 पश्यतु तत्र. अहम् इयम् इति अतः तत्र अस्याः दुर्दशायाः इति षष्ठी एकवचने वचनरूपम् अस्ति, तत्र प्रथमाविभक्तिरूपं किं भवति? इयं दुर्दशा, इयं दुर्दशा, भवतः इयं दुर्दशा अस्याः दुर्दशायाः कारणम्
कारणमपि अहम् एव खलु. न जानामि अहं कीदृशीं दुर्गतिं प्राप्स्यामि इति. सः वदति भवतः भीष्मस्य दुर्दशायाः कारणं सः एव अस्ति इति सः चिन्तयति. अतः तस्य परिणामस्वरूपम् अहमपि दुर्गतिं प्राप्स्यामि इति सः चिन्तयति.
कीदृशम् इत्युक्ते दुर्गतिम् इत्युक्ते
स्वर्गे
जीवने अग्रे अन्ते वा अथवा मरणानन्तरं वा अथवा जीवने एव तत्र अनन्तरं किं भविष्यति इति, तत्र कीदृशी गतिः मम भवति इति न जानामि, अतः अहं कीदृशीं गतिं प्राप्स्यामि इति भविष्यत्कालरूपं लट्लकररूपं कः
प्राप्नोति इति.
हा, प्राप्नोमि समीचीनं भगिनि. हा, अस्तु, समीचीनम् अस्तु. गीताञ्जलि भगिनी नमस्कारः. अस्तु, अग्रे रघुपतिमहोदय, अग्रे अग्रिमपरिच्छेदः.
नमस्ते महोदय, क्षम्यतां महोदय.
हा, चिन्ता मास्तु भगिनि, पेज् 49 मध्ये, पेज् 49.
धन्यवादः.
तं सान्त्वयन् भीष्मः अवदत्, वत्स, अस्य सर्वस्य कारणं त्वं नैव, इमे ते बान्धवाः स्वस्य स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति. किन्तु युधिष्ठिरः समाहितः नाभवत्. तं पुनरपि बोधयन् भीष्मः तस्य निदर्शनरूपेण इमां कथां श्रावितवान्. तदा भीष्मः युधिष्ठिरं सान्तयित्वा, सान्त्वनं कुर्वन् उक्तवान्, भवान् अस्य विनाशस्य कारणं नास्ति एव. त्वं नासि भवान् त्वं नासि
भवान् नासि त्वं नासि
इमे इति एते इमे इमे ते बान्धवाः इमे ते इमे ते बान्धवाः
इमे इमे इति तत्र इदानीं तत्र अग्रिमेपुटे तत्र अयम् इमौ इमे इमे तु बहुवचने अस्ति अयम्
अयम् इमौ इमे
इमे इति अतः बान्धवाः इति अस्ति अतः इमे बान्धवाः एकवचने बान्धवः अस्ति चेत् तत्र
बान्धवः बान्धवः
अयं बान्धवः
अयं बान्धव अयं बान्धवः इमौ बान्धवौ इमे बान्धवाः
इमे बान्धवाः इति समीचीनं अपि तत्र ते इति अस्ति
ते ते इमे ते इति चतुर्थीविभक्ति भवति वा
तत्र गतवर्गे षष्टिः एव तत्र गतवर्गे तत्र न उक्तं किन्तु ते इति तत्र तव इति भवति अर्थे
तव इति खलु षष्टिः
मे इति यदा यथा मे इति मम इति अर्थे अस्ति तादृश अत्रापि ते इत्युक्ते तव इमे ते बान्धवाः इमे तव बान्धवाः
तव बान्धवाः परन्तु विशेषणविशेष दत्तमस्ति खलु अत्र किमपि दत्तमस्ति खलु तत्र द्वयमपि अस्य सर्वस्य भवतः अस्याः इति
तत्र स्थूलक्षरैः दत्तं किन्तु तत्र केवलं तत्र सर्वनामशब्दः
भ्रमः भवति
सत्यं अतः
केवलं सर्वनामशब्दः विशेषणविशेषः नास्ति अत्र
यद्यपि
तस्य विशेषणविशेषभावेन तस्य प्रयोगः अधिकतया भवति
किन्तु अत्र तादृशः नास्ति सत्यं अतः ते इत्युक्ते तत्र तव इति
तव तव क्षम्यतां तव तव बान्धवाः स्वस्य स्वस्य तेषां पुराकृतस्य कर्मणः फलम् अनुभवन्ति कर्मणः षष्ठीभक्तिः अस्ति कर्मणि कर्मणः बान्धवाः तव बान्धवाः स्वस्य कृतस्य कर्मणः फलम् अनुभवन्तः सन्ति अनुभवन्ति
अनुभवन् अतः तत्र एकवचने तत्र
अयं
प्रत्येकः 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 तव बान्धवः
प्रत्येकः प्रत्येकः तव प्रत्येकस्य तव सोरि प्रत्येकः तव बान्धव तव बान्धवाः तेषां तस्य पुराकृतस्य पुराकृतस्य इत्युक्ते पूर्वं कृतस्य पूर्वं कृतं तस्य कर्मणः फलम् अनुभवन्ति
पूर्वं यत् कर्मं सः कर्म स कृतवान् बान्धवः यत् कर्मं कृतवान्
तस्य आधारेण एव तस्य फलं
तस्य फलं कर्मणः फलम् अनुभवति इदानीम्
किन्तु युधिष्ठिरः समाहितः न अभवत् परन्तु युधिष्ठिरः इदानीमपि समाधानं न प्राप्नोति समाहितः इत्युक्ते सन्तुष्टः न अभवत् इति
अतः तत्र वाक्यस्य भीष्मस्य वाक्यस्य तत्र
स्वान्तनं न प्राप्तवान्
भीष्मस्य वाक्यस्य आशाका तत्र
भीष्मस्य वाक्यस्य आशा इति अस्ति
तत्र युधिष्ठिरः खिन्नः किमर्थं खिन्नः अहमेव कारणम् इति सः चिन्तयन् खिन्नः अस्ति किन्तु युधिष्ठिरस्य तत्र भीष्मस्य वाक्यस्य आशा का अस्ति तत्र
त्वं
कारणं नास्ति
ते एव तेषां या गति याः गतयः सन्ति ते एव तासां गतीनां कारणीभूताः तादृश वा
तत्र याः गतयः वयं पश्यामः तत्र तव बान्धवानां गतयः याः पश्यामः ताः सर्वे तत्र तेषां कृतानां कर्मणानां कर्मणानाम् अथवा कर्माणां वा कर्माणाम् इति प्रायशः अस्ति कर्माणां फलं न तु तत्र भवतः कारणेन न इति अतः तत्र हा किन्तु तत्र भवान् तत्र युधिष्ठिरः कारणं नास्ति इति तत्र वाक्यस्य आशा अस्ति इच्छा अस्ति किन्तु किं भवति युधिष्ठिरः
समाहितः न भवति न भवति सः न अङ्गीकरोति इदानीमपि तस्य मनसि दुःखः अस्ति अतः तं पुनरपि बोधयन् इदानीं पुनरपि पुनरेकवारं तस्य सम्यक् अवगमयितुं भीष्मः तस्य निदर्शनरूपेण कथां श्रावितवान् इमां कथाम् अस्य अत्र इदम् इत्यस्य इमाम् इति अस्ति अत्र यत्र कर्मपदमस्ति अतः द्वितीयविभक्ति इमां
समीचीनम्
इयम् इयम् इमे इमाः इमाम् इमे इमाः इमां कथां श्रावितवान्
इमां कथां समीचीनं महोदय अतः तत्र तं युधिष्ठिरं पुनरपि बोधयन् पुनः तत्र शतन्त्ररूपम् अस्ति यतोहि तत्र बोधयितुम् इच्छति तस्मिन् एव समये श्रावयति अपि अतः तत्र
बोधयन् भीष्मः इति
तत्र श्रावितवान् तस्य इति पदस्य अर्थः कः तत्र
तस्य इति इदानीं तस्य अत्र निर्दर्शनरूपे ये इदानीं विधिष्ठिरस्य बान्धवाः याः दुर्गतिं प्राप्तवन्तः तत्र तेषां ते एव तस्य तासां किमस्ति ते एव तेषां गति
तत्र तस्य इत्युक्ते एतदेव
चिन्तनस्य त्वं नास्ति त्वां न दुर्गति कारणं नास्ति
इति तत्र निदर्शनम् इत्युक्ते तस्य यत् वाक्यं सः उक्तवान् भीष्मः उक्तवान् तत्र स्वस्य पुराकृतस्य कर्मणः फलं अनुभवति प्रत्येकजीवः इति अतः तत् वाक्यं अथवा तस्य वाक्यस्य निदर्शनरूपेण इमां कथां श्रावितवान् अतः तत्र तस्य इत्युक्ते वाक्यस्य तावदेव
वाक्यस्य बोधनस्य
अस्तु महोदय किञ्चित् अग्रेपि पठति वा तत्र प्रायशः तत्र आनीतवान् इति तत्र
अस्तु पुरा गौतमी नाम काचित् तपस्विनी महिला आसीत् तस्याः अतिप्रियः एकः एव पुत्रः कदाचित् कश्चन सर्पः तं पुत्रम् अदर्शत् तेन सह बालः अचेतनः जातः अर्जुनकः नाम व्याधः एतद् दृष्ट्वा झटिति स्नायुपाशेन तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान् पुरा इत्युक्ते पुरातन पूर्वं काचित् महिला आसीत् सा तस्याः नाम गौतमी सा तपस्विनी आसीत् तपस्विनी गौतमी इति महिला
तपस्विनी महिला आसीत्
तपस्विनी
अस्ति चेत् तत्र किं भवति
तपस्विनी अथवा विद्यार्थिन् इनि
तपस्विनः पुल्लिङ्गे समीचीनं तत्र गुणी अथवा गुणिनी इति स्त्रीलिङ्गे, यस्मिन् अथवा यस्य, तत्र यस्मिन् तपः अथवा यस्य तपः अस्ति, तपः कृतवती, या तपः कृतवती अथवा यस्यां तपशक्तिः अस्ति इति, तत्र सा तपस्विनी.
इदानीं तस्याः अतिप्रियः एकः एव पुत्रः, तस्याः पुत्रः आसीत् एकः एव अतिप्रियः, एकः अस्ति अतः अतिप्रियः अस्ति सः पुत्रः. कदाचित् कदाचित् कश्चन सर्पः तं पुत्रम् अदशत्, पुत्रं तं पुत्रं, तस्य तं पुत्रम् इत्युक्ते अतिप्रियं पुत्रम् अदशत्, सर्पः अदशत् अदशत् दशति अदशत्.
गतवर्गे वयं दृष्टवन्तः दशति, गीताञ्जलि भगिनी तत्र प्राप्तवती.
तेन सह बालः अचेतनः जातः, तेन कारणे दशनेन दशनम् इति दशनेन दशति दशनं दंशनं वा दशनेन 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 कारणेन सः बालः अचेतनः जातः. तस्य चेतन अचेतन इत्युक्ते नै तत्पुरुषः अस्ति, चेतन नास्ति इदानीं, मूर्छा अपि तु अथवा मरणमपि
तत्र अत्र तु
मृतः एव, अत्र एव मृतः एव अचेतनः जातः. आम् अत्र अर्जुनकः अर्जुनकः नाम व्याधः एतद् दृष्ट्वा झटिति स्नायुपाशेन तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान्. अर्जुनकः नाम व्याधः तं सर्पं रज्जुना इति भवति रज्ज्वा रज्ज्वा
तत्र स्नायुपाश इति चित्रे अस्ति महोदय, तत्र
स्नायुपाश आमां
तत्र
व्याधाः व्याधाः प्राणिनं बद्धुं
एतस्य
उपयोगं कुर्वन्ति
स्नायुपाशेन
तेन तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान्.
अतः तत्र यः सर्पः तत्र अतिप्रियं पुत्रं मारितवान् तं सर्पम् इदानीं तत्र अर्जुनकः नाम व्याधः गौतम्याः समीपम् आनीतवान् अस्ति.
स्नायुपाशेन इत्युक्ते किं महोदय?
तत्र स्नायुपाश तत्र चित्रे अस्ति, तत्र चित्रे अस्ति खलु भगिनि, तत्र
करणमस्ति स्नायुपाश इति, स्नायुना तत्र पाश तत्र बन्धनं करोति खलु,
तत्र
स्नायुकृते शरीरसङ्ग खलु मसल्स्. एकं तु एकविधः व्याधानां कारणमस्ति यत् ते मृगाणां बन्धनं करोति खलु,
तत्र चित्रे अस्ति
यमपाश इति
व्याधस्य हस्ते व्याधस्य हस्ते अस्ति एतत्.
आं महोदय, परन्तु स्नायुपाशेन इति उक्तमस्ति,
तदेव स्नायुपाशः, तत्र यन्त्रं यदस्ति तदेव स्नायुपाश
इति स्नायुपाश
ऐ थिङ्क्.
तादृश काष्ठखण्डः अस्ति अपि तत्र, तत्र
रज्जु अस्ति रज्जु
रज्जु तत्र तत्र चित्रे यत् अस्ति तदेव भगिनि. रघुवीरानन्दस्वामी नमस्कारः.
हरिः ओं महोदय.
नमस्कारः, पेज् 49 मध्ये स्मः. अस्तु, इदानीं सूर्यकुमारी भगिनी अग्रे उक्तवान् च इति
अत्र महोदय अत्र दत्तमध्ये पश्यते अथवा बध्यते अनेन इति पाशः इति, पश्य इति धातुः अस्ति, पश्य इति घञ् प्रत्ययः अस्ति, पाश इति भवति.
किन्तु तत्र स्नायुपाशः इति तत्र
स्नायु इत्युक्ते मांसखण्डः इति खलु स्नायु इत्युक्ते अथवा शरीरं
अस्तु
शरीरं बध्नाति अनेन इति स्नायुपाशः इति स्नायु इत्युक्ते तादृश
हा सत्यं सत्यं महोदय तत्र रज्जुः इति एव रज्जुः एव अस्ति तत्र
आमां पाश इत्युक्ते यत् येन बध्यते इति बन्धनं करोति अनेन इति
रज्जुपाशः इति अपि तत्र वक्तुं शक्नुमः प्रायशः
पश्यते इति बध्नाति इति अर्थे अस्ति पश्यते इति पश् दातु
अस्तु
तत्र दिवादिगणे दातु अहं
अस्तु समीचीनम् अस्तु सूर्यकुमारी भगिनी अग्रे
उक्तवान् च सः अर्जुनकः उक्तवान् च मातः अयं दुष्टसर्पं
तव दुष्टसर्पः
तव पुत्रम् अमारयत् मातः सम्बोधनम् अयं सर्वनाम पुल्लिङ्गपदं दुष्टसर्पः एकवचनं परमविभक्तिः तव पुत्रं अमारयत्
अमारयत् इति स्थाने किं
मारितवान्
शुभदा भगिनी कः प्रश्नः
क्षम्यतां क्षम्यतां
अस्तु
किम् अहम् एतम् अग्नौ क्षिपामि अग्नौ क्षिपामि उत खण्डस्य करवाणि
किम् इत्युक्ते
अहम् एतम् अग्नौ क्षिपामि उत खण्डपाशः करवाणि प्रश्नः वदति अग्नौ क्षिपामि
तत्र तत्र करवाणि इति लकारः कः
करवाणि खण्डस्य
केवलं करवाणि करवाणि इति लकारः कः क्रियापदम् अस्ति क्रियापदमस्ति पुरुषः कः पुरुषः मध्यमपुरुषः उत्तमपुरुषः
उत्तमपुरुषे एकवचनं
हा समीचीनं पठानि पठानि वा गच्छानि वा इति करवाणि किं करवाणि लोट्लकारः
एकवचनं उत्तमपुरुषे
समीचीनं भगिनि अतः तत्र प्रश्नः सरलप्रश्नः अस्ति तत्र किं करवाणि
खण्डसः करवाणि
हा अहम् एतम् एतम् इत्युक्ते कम् एतं दुष्टसर्पम् अग्नौ क्षिपामि वा किम् एतम् अहम् अग्नौ क्षिपामि वा अहं यदि एतत् करोमि चेत् सम्यक् भवति वा इति सः प्रश्न सः पृच्छति अहम् एतं सर्पं किं करवाणि अहं तत्र क्षिपामि वा अग्नौ क्षिपामि वा अथवा उत इत्युक्ते अथवा किं खण्डशः इत्युक्ते हा तत्र सर्पं सर्पः अस्ति किन्तु तत्र तं सर्पं खण्डशः करोमि इत्युक्ते तत्र तदनन्तरं किं भवति अनेकाः खण्डाः सन्ति तत्र सर्पः मृतः इति तत्र कीदृश तत्र प्रश्नः अस्ति सर्पस्य मरणम् आवश्यकं किन्तु केन मार्गेण तस्य मरणं भवति इति अतः अथवा वद वद इति लकारः कः तत्र वद
मध्यमपुरुष एकवचनं लोट्लकार
हा अथवा त्वं वद किं वद
अन्येन केन प्रकारेण एनं दण्डयानि इति अन्येन केन अन्यविध अन्यमार्गेण केन विशेषणविशेषसम्बन्धं केन सर्वनामशब्दम् अन्येन अपि सर्वनामशब्दम्
द्वितीया विभक्ति एकवचनं एनम् इत्युक्ते अन्यत् पदं किम् अस्ति एनम् एषः इति पदस्य द्वितीयविभक्ति एतं सर्पं दण्डयानि अथवा एनम् इति तत्र इमम् अपि तत्र स्थापयितुं शक्नुमः
दण्डयानि
इति
पुनः
इति लोट्लकार उत्तमपुरुष एकवचनं दण्डयानि अतः तत्र केन रूपेण तेन केन प्रकारेण प्रकारः इत्युक्ते तत्र मार्गेण तत्र तत्र एतत् करवाणि वा अथवा अन्यत् करवाणि वा तत्र प्रकाराः तत्र अनेकाः सन्ति इत्युक्ते तत्र विकल्पः तत्र चाय्स् इति तत्र एतत् करोमि वा अथवा अन्यत् प्रकारेण करोमि वा तत्र केन प्रकारेण दण्डयानि दण्डयामि तु निश्चयं किन्तु केन प्रकारेण एनं दण्डयानि इति तद् एव भवति वदतु इति अग्रे
तदा गौतमी अवदत् गौतमी महर्षिणी अवदत्
तपस्विनी
हे सौम्य त्वज एमं सर्पम् यतः अस्मिन् सर्पे मारितेपि मृतः मम पुत्रः जीवितः न भविष्यति इति तस्य वाक्यं श्रुत्वा गौतमी तपस्विनी अवदत् त्वज इमं सर्पम्
त्यज इमं सर्पम् तत्र त्यज इति लकारः कः त्यज
त्यज मध्यमपुरुष एकवचनं
लकारः
लोट्लकारः
समीचीनं त्यज त्यजतु त्यजानि अत्र त्यज इमं सर्पम्
इमं द्वितीय एकवचनं
समीचीनं त्यज इमं सर्पं
श्रीलिङ्ग
पुल्लिङ्ग पुल्लिङ्ग सर्पः
यतः अस्मिन् सर्पे मारितेपि मृतः मम पुत्रः जीवितः न भविष्यति तं मारयित्वा मम पुत्रः जीव न भविष्यति इति कारणे त्यज तत् कार्यं त्यज
अस्तु तत्र सर्पस्य दण्डन तत्र सर्पस्य दण्डनं मास्तु तत्र मा करोतु किमर्थं यदि
मम पुत्रः जीवितः न भविष्यति
तत्र तस्य जीवनं तत्र पुनः जीवितः सः न भविष्यति तत्र सः मृतः तत्र पुनः तस्य पुनर्जीवनं तत्र इति किन्तु तत्र अस्मिन् सर्पे मारिते अपि इति अस्ति तत्र किमस्ति
अस्मिन् सर्पे प्रथम पुल्लिङ्ग सप्तमी एकवचनं
अस्मिन् सर्पे किम् अस्ति
विशेषणविशेषभावे
सत्यं समीचीनं मारिते इति अस्ति
मारितेपि मा, मरणं करोति
अपि तत्र मारिते इति पदं तत्र
मारितः
मारितः समीचीनं समीचीनं पठितः इति तत्र मारितः 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 इति इत्युक्ते केन मारितः भवति सर्पः व्याधेन मारितः व्याधः मारयति यदि व्याधः सर्पं मारयति तत्र किं भवति सर्पः व्याधेन मारितः भवति खलु अतः तत्र मारितः इति पदमस्ति किन्तु तत्र किम् अस्ति मारिते इति तस्य मारितः इति पदस्य मारिते इति तत्र रूपं किम्
मारितः बहु भूतकाल
तत्प्रत्यय किन्तु मारितः इति पदम् अस्ति मारिते इति कीदृशरूपं तस्य
विसर्गसन्धिः
न न सत्यं तत्र मारिते इति पदं तत्र विभक्ति का मारिते इति पदे
मारितः अपि
मारितः
एकवचनप्रथमपुरुषः
मारितः इति अस्ति मारिते इत्युक्ते तत्र सप्तमी मारिते मारितः अकारान्तपदं मारितः देवः शब्दवत् देवः मारिते देवे अतः मारिते सप्तमी एकवचनं सप्तमी एकवचनं तत्र अर्थः कः अस्मिन् सर्पे मारिते इति अर्थः कः
अस्मिन् सर्पे मारिते
इत्युक्ते किं तत्र तत्र भगिनि तत्र केवलम् एतदस्ति तत्र सतिसप्तमी इति वदामः इत्युक्ते तत्र यदि इति अर्थे यदि एषः सर्पः मारितः अपि एषः सर्पः मारितः अपि यदि एषः सर्पः मारितः तथापि मम पुत्रः जीवितः न भविष्यति तत्र सतिसप्तमी अस्ति चेत् तत्र किं यदि इति अर्थे अथवा तत्र यदि तर्हि इति अर्थे तत्र यदि सः एषः सर्पः मारितः भवति तर्हि तत्र किं मम पुत्रः जीवितः तु न भविष्यति अतः तत्र कोऽपि लाभः नास्ति कोऽपि अर्थः नास्ति अत्र तस्य मारणेन अथवा अतः तत्र मारणं मास्तु इति सा वदति समीचीनं भगिनि अतः तत्र सतिसप्तमी अतः तत्र सतिसप्तमी इत्युक्ते तत्र एषः सर्पः मारितः इति स्वीकृत्य तत्र सम्पूर्ण वाक्यं पदत्रयमस्ति तत्र तस्य सप्तमीरूपं विभक्तिरूपं स्थापनीयमस्ति अतः एषः सर्पः मारितः इति स्थाने अस्मिन् सर्पे मारिते इति तावदेव मारिते अपि इदानीम् अग्रे समीचीनं भगिनि अस्तु अग्रे समीचीनम् अग्रे गीताञ्जलि भगिनि
किन्तु व्याधः तत् अनङ्गीकुर्वन् पुनः पुनः सर्पं मारयितुं तस्याः अनुमतिम् अयाचत गौतमी तु तस्मै अनुमतिं न अददात् गौतमी व्याधयोः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत् हे अर्जुनक अहं बालम् अदशं यत् तत्र मम न कोऽपि दोषः मृत्योः बलात् एव मया इदं कार्यं कृतम् इति किन्तु व्याधः तत् अनङ्गीकुर्वन् पुनः पुनः सर्पं मारयितुं तस्याः अनुमतिम् अपृच्छत्। तस्याः इत्युक्ते गौतमीयाः
गौतम्याः तत्र हा गौतम्याः तत्र एतत् कुर्मः भगिनि, तत्र व्याधः तत् अनङ्गीकुर्वन्, किम् अनङ्गीकुर्वन्?
हा तत् इत्युक्ते आदेशम् अनङ्गीकृत्।
हा तत्र गौतमी यत् उक्तवती, वाक्यम् उक्तवती, तत्र तस्य सर्पस्य दण्डनं मास्तु इति, मारणं मास्तु इति तं तत् वाक्यं अथवा तत्र तत् वाक्यम् अनङ्गीकुर्वन्,
अनङ्गीकुर्वन्
इति शत्रुरूपं
श्रुत्वा तपस्याः वाक्यम् अपि श्रुत्वा
तत्र तपस्विन्याः इति खलु, तपस्विनी इति अस्ति, तपस्विन्याः
तपस्विन्याः वाक्यं श्रुत्वा तत् अनङ्गीकुर्वन् अङ्गी न कुर्वन् इत्युक्ते व्याधः चिन्तनं भिन्नः अत्र। व्याधः पुनः पुनः सर्पं मारयितुम् इत्युक्ते यद्यपि सर्पं मृतं जातः किन्तु पुनः पुनः सर्पं मारयितुं तपस्विन्याः अनुमतिम् अयाचत इत्युक्ते सः चिन्तितवान् इत्युक्ते व्याधः चिन्तितवान् किमर्थं तपस्विनी मम दृष्टिकोण
तत्र व्याधः व्याधस्य चिन्तनं किम् अस्ति, सर्पस्य मरणम् आवश्यकम् इति।
मरणं तु अभवत् न महोदय,
पुत्रस्य मरणम् अभवत् किन्तु सर्पस्य
मरणं तु अभवत् न महोदय,
न अभवत् भगिनि, सः किं कृतवान् तत्र, सर्पं बद्ध्वा केवलं सर्पस्य बन्धनं कृतवान् व्याधः। हा केवलं बन्धनं कृत्वा अतः सर्पः इदानीमपि तत्र तस्य जीवनम् अस्ति, सः सर्पः न मृतः अतः, किन्तु तत्र व्याधः किं चिन्तयति, सर्पस्य सर्पं मारयामि इति, हा सर्पं मारयामि इति सः चिन्तयति, किन्तु एषा तपस्विनी गौतमी सा किं चिन्तयति, मास्तु
इति
किन्तु तत्र सः व्याधः तत् न अङ्गीकरोति, पुनः पुनः सर्पं मारयितुं तस्याः तपस्विन्याः तत्र गौतम्याः अनुमतिम् अयाचत इति तत्र इदानीं तत्र अयाचत् इति अस्ति किन्तु अत्र अयाचत् इति जानीमः किन्तु तत्र अयाचत इति अस्ति, अयाचत इति किमर्थम्?
अयाचत इति तु आत्मनेपदे,
तावदेव समीचीनं भगिनि, अयाचत् इति अस्ति चेत् परस्मैपदे किन्तु अत्र अयाचत इति आत्मनेपदे रूपं, तावदेव
अयाचत इति पदस्य पर्यायवाची शब्दः कः महोदय?
तत्र याच् इति धातु तत्र तत्र
इच्छत
इच्छति इति इच्छति अपि तत्र किन्तु बेग् इति अस्ति, तत्र बेग् इति अर्थे अस्ति,
पर्यायवाची शब्दः कः महोदय?
तत्र किं भवति भगिनि, पर्यायवाचः किं भवितुम् अर्हति, सन्ति तु
विनन्ति
इति वा, अस्तु भगिनि, अस्तु अस्तु।
गौतमी तु तस्मै अनुमतिं न अददात् इत्युक्ते यद्यपि व्याधः अनुमतिम् अयाचत किं कृते सर्पं मारयितुं कृते
तस्य सर्पस्य मारणं कर्तुं मारणम् इत्युक्ते तत्र पठनम् इति तत्र नीच्छति अतः तत्र मारणं कर्तुं अनुमतिम् अयाचत किन्तु गौतमी किं
किन्तु गौतमी तु व्याधै
व्याधाय
व्याधाय चतुर्थी व्याधाय अनुमतिं न अददात्
न दत्तवती
न दत्तवती अपि च न दत्तवती
तत्र तस्याः चिन्तनमस्ति मास्तु इति अग्रे
इति चिन्तनम् अशुद्धं गौतमी व्याधयोः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत् इत्युक्ते यदा व्याधः गौतमी तपस्विन्याः वाक्यं न बोधितवान्
अथवा तत्र गौतमी अपि व्याधः ते किं कुर्वन्तौ स्तः तत्र सम्भाषणं कुर्वन्तौ स्तः खलु तत्र व्याधः वदति अहं करोमि करवाणि वा इति सा वदति मास्तु न इति सः पुनः अहं करवाणि वा इति सः वदति सा न न इति वदति अतः तत्र तयोः सम्भाषणं श्रुत्वा
स्वस्य रूपे तु न किन्तु
तत्र भाषीय तत्र साधारणतया वयं किं चिन्तयामः तत्र सर्पः मनुष्यभाषया न वदति इति किन्तु तत्र किन्तु अत्र सर्पः मनुष्यभाषया
सर्पः मनुष्यभाषया अवदत् कः अवदत् इत्युक्ते गौतमी एव अवदत् किन्तु
न गौतमी न अवदत् सर्पः अवदत् सर्पः कं प्रति अवदत् गौतमी व्याधं गौतमी व्याधं प्रति अवदत् गौतमी
सर्वं श्रुत्वा सर्वं सम्भाषणं श्रुत्वा सर्पः मनुष्यभाषया इत्युक्ते संस्कृतभाषया अवदत्
तत्र सर्पः जानाति तत्र एषः तत्र एतत् सम्भाषणं एतत् सम्भाषणं तत्र कदा तत्र समाप्तं भवति कदापि न समाप्तं भवति इति ज्ञात्वा सर्पः एव तत्र मनुष्यभाषया वदति
अधुना तु सर्पः तु अधुना तु मरणं न प्राप्तम् इत्युक्ते
वक्तुं शक्नोति सः सर्पः शृण्वन् अस्ति सम्भाषणं शृण्वन् अस्ति
वक्तुं शक्नोति
तत्र अवदत् इति अस्ति मनुष्यभाषया इति अस्ति तत्र तृतीयविभक्ति तत्र कीदृशं रूपम् अस्ति तत्र माध्यमं वा अथवा भावः वा किं
भावः इति महोदय मनुष्यभाषया अवदत् तृतीय वा महोदय
तृतीय किन्तु तत्र केन मार्गेण अवदत् तत्र भाषया तत्र तत्र प्रायशः तत्र किं माध्यमम् इति प्रायशः
माध्यममपि
समीचीनम् इति तत्र माध्यमम् इति एव प्रायशः समीचीनं भवति
माध्यमम् एव
माध्यमम् अग्रे हे अर्जुनकः
अर्जुन बालक इति तु सम्बोधना अहं बालम् अदशत् अदशं यत् तत्र मम न कोऽपि दोषः इत्युक्ते यद्यपि अहं बालम् अदशं
तस्य मरणं कृतवान् तं मारितवान्
अहमपि कृतवान्
अहमेव कृतवान्
किन्तु तत् कार्यं तत् कार्यस्य दोष
तस्य कार्यस्य
तस्य कार्यस्य कृते मम दोषः कोऽपि नास्ति इति
हा मम दोषः नास्ति तस्मिन् कार्ये मम दोषः कोऽपि दोषः मम नास्ति इति समीचीनं
मृत्योः बलात् एव मया इदं कार्यं कृतम् मृत्योः बलात् एव मया इदं कार्यं कृतम्
तत्र इदानीं तत्र एतदपि पश्यतु किमर्थं तस्य तत्र कोऽपि दोषः नास्ति इदानीं तत्र उत्तरं मया इदं कार्यं कृतम् इति अस्ति तत्र मया इदं कार्यं कृतं तत्र रूपं कीदृशं
कर्मणि
हा कर्मणि तत्र कर्मणि रूपं किमर्थं स्वीकृतम् इत्युक्ते अहं न कर्ता अहं कर्ता नास्मि
किन्तु मया
एतत् कार्यं कृतम् इति अत्र कर्मणि मया कृतम्
मृत्योः बलात् अत्र
एव तत्र कारणं मृत्योः बलात् एव कारणात् तस्मात् कारणात् मया इदं कार्यं कृतम् इत्युक्ते
किमर्थं महोदय मृत्योः बलात्
तत्र इति सर्पः वदति मृत्युः इति अस्ति मृत्युः यः अस्ति तस्य बलात् एव एतत् कार्यं मया सः एव प्रेरितवान् सः एव एतत् कार्यं कारितवान्
मृत्योः
प्रेरणेन
अहं
मया एतत् कार्यं
कृतम्
अतः मृत्युः एतत् कार्यं मया कारितवान् वास् केरिड् औट् बै मी इति अर्थे हा ही मेड् मी केरि औट् दिस् टास्क् इति अर्थे हा
कर्ता तु मृत्युः एव
हा इति हा मृत्युः मया मृत्युः मया एतत् इदं कार्यं कारितवान् इदम् अथवा मया एतत् कार्यं कृतं किन्तु मृत्योः बलात्
मृत्योः बलात् तु पञ्चमी एव
पञ्चमी कारणं कारणपञ्चमी हा तस्मात् कारणात् इति मया एतं कार्यं कृतम् अस्ति इति अस्तु अग्रे भगिनि
तदा व्याधः अवदत् तथापि अस्य बालस्य दशनं तु त्वया एव कृतम् अतः त्वं व्याधः एव इति
वद्यः एव
अतः त्वं वद्य एव इति
तत्र तस्य वद् इति तत्र वद्यः तत्र तम् अर्हसि
किलर्
न हा वद्यः इत्युक्ते तं त्वम् अर्हसि तत्र अर्हता अस्ति तव अर्हता अस्ति किं वदनं कर्तुं तत्र तस्य तव वदनं भवतु इति तत्र त्वम् अर्हसि
वद्यतु इत्युक्ते भवान् एव कारणमस्ति
हा वद्यः इत्युक्ते तत्र एतत् पुस्तकं बहु समीचीनम् अस्ति एतत् पुस्तकं बहु समीचीनम् अस्ति एतत् पुस्तकं पठनीयमेव पठनीयं पुस्तकम् एतत् इत्युक्ते किम्
इत्युक्ते विशेषण अस्ति,
विशेषणम् अस्ति, किन्तु पठनीयम् इति पदस्य अर्थः कः? तत्र एतस्य पुस्तकस्य पठनं करोतु, निश्चयेन करोतु, करणीयमस्ति, करणीयमस्ति, आवश्यकमस्ति, आवश्यकमस्ति. तादृशः अपि अत्र वद्यः पठनीयं पुस्तकं, वद्यः सर्पः त्वं, तस्य वदः, तस्य वदः आवश्यकः, तस्य वदनं, तव वदनं किं महोदय?
पठ्यं पुस्तकम् इति भवति, पुस्तकम् एतत् पुस्तकं पठ्यम् इति
पठ्यं, सत्यं महोदय, प्रत्ययः भिन्नः किन्तु तत्र अर्थः समानः. सत्यं महोदय, तत्र पठ्यः इति पठनीयः इति, किन्तु अत्र
यत् अहं चिन्तयामि महोदय, यत् ण्यत् कार्यम् इति, अत्र ण्यत् इत्युक्ते अत्र वृद्धिः भवति, कार्यं भवति, अन्यथा इति पठ्यं, वध्य, वध्यः, पठ्य,
पठ्यं
पुस्तकं, यत् अहं चिन्तयामि, यत् ण्यत् इति त्रयः पत्रय, त्रयः
त्रयः
पत्रयः सन्ति,
किन्तु तत्र अर्थः नियत् इति, तत्र
अनियर इव अस्ति,
तत्र करणीयमेव, तत्र
तव
तव वदनं करणीयम् इति, सर्पस्य वदनं करणीयम् इति. यतो किमर्थं गीताञ्जलिभगिनी तत्र तथापि, तत्र तथापि इत्युक्ते मृत्युः बलात् एव एतत् कार्यं कृतम् इति अङ्गीकरोमि, किन्तु बालस्य दर्शनं
व्याधः तु न अङ्गीकृतवान् तत् तदपि
न, सः अङ्गीकरोति, सः अङ्गीकरोति, अस्तु मृत्योः बलात् भवान् एतद् भवता कृतं, किन्तु भवतः एव कृतं खलु.
हा इत्युक्ते सर्पः तु अवदत् मया इदं कार्यं कृतम् इत्युक्ते अहं तु कर्ता नास्ति,
नास्मि
नास्मि, किन्तु व्याधः तु न अवगतवन्तः तत्र,
न न व्याधः अवगच्छति भगिनि, तत्र सर्पः किं वदति, मृत्योः बलात् मया कार्यं कृतम् इति. सर्पः किम् इच्छति, मृत्योः बलात् पश्यतु मम, अहं मया कार्यं कृतं, किन्तु कस्मात् कारणात्, मृत्योः बलात् मया कार्यं कृतं. व्याधः वदति अस्तु मृत्योः बलात् वा किमपि भवतु, किन्तु भवता एव कार्यं कृतं खलु, अतः त्वया एव कार्यं कृतं, हा भवता एव, त्वया एव कृतम्, अतः त्वं वद्यः एव, कारणं किमपि भवतु किन्तु त्वया एव कृतं खलु, अतः त्वं वद्यः इति वदति. हा अग्रे अन्तिमवाक्यं,
सर्पः अवदत् अहं मृत्योः प्रेरणया एव अस्य बालस्य हनने कर्ता अभवम्.
हा अहं मृत्योः
प्रेरणया एव इत्युक्ते मृत्योः प्रेरणया इत्युक्ते
प्रेरणया इति विभक्ति का तत्र,
प्रेरणया इति तु तृतीया
एक प्रथमविभक्तिरूपं किं
आकारान्त इति रमावत् महोदय, अतः
प्रेरणा, समीचीनं, प्रेरणा इति, प्रेरणा प्रेरणया एव,
अहं मृत्योः प्रेरणया इत्युक्ते मृत्योः
कारणेन, तत्र प्रेरणा इति अस्ति, प्रेरणा एव कारणम्, अतः प्रेरणया एव अस्य एतस्य
एव अस्य बालस्य हनने कर्ता अभवम्.
हनने इति विभक्ति का तत्र,
हनने सप्तमी
हनने
कर्ता अभवम् हनने कर्ता अहम् एव इति न क्षम्यतां महोदय
भगिनि
क्षम्यतां महोदय
चिन्ता मास्तु भगिनि
अस्तु
तत्र अहं कर्ता अभवम् केन कारणेन तत्र मृत्योः प्रेरणया अतः
अहं मृत्योः प्रेरणया एव अस्य बालस्य हनने कर्ता अभवम् अस्तु वास्तविकं कारणं तु मृत्युः एव इति
अतः यद्यपि मया कार्यं कृतं किन्तु कारणं
तु
मृत्युः एव वास्तविककारणं वस्तुतः सत्यं कारणं निजकारणम् इति अहमेव कारणम् इति भाति इति दृश्यते किन्तु यतोहि मया कार्यं कृतं किन्तु अहं वस्तुतः कारणं नास्मि वास्तविककारणं
तु मृत्युः
एव अस्ति इति अतः तत्र मम दोषः नास्ति इति तत्र तस्य मतं वदति सर्पः तस्य सर्पः एव वदति अतः तस्य दोषः नास्ति इति तत्र सर्पः वदति अस्तु अग्रे रघुवीरानन्दस्वामी अग्रे धन्यवादः भगिनि बहु समीचीनं अग्रे रघुवीरानन्दस्वामी श्रूयते वा महोदय अस्तु तर्हि तत्र पुनः नरेश महोदय अग्रे पठति वा
आं महोदय तदा मृत्युः एव तत्र उपस्थितः अभवत् तदा मृत्युः अपि तत्र
आगतः तत्र सः अपि तत्र अस्ति इदानीं तत्र पूर्वं तत्र किं गौतमी आसीत् व्याधः मृतपुत्रः सर्पः तदनन्तरं सर्पः उक्तवान् किन्तु इदानीं तत्र नूतनतया तत्र मृत्युः अपि तत्र आगतः अस्ति उपस्थितः अस्ति सः
सर्पः उक्तवान् मृत्यु कारणम् अस्ति
इति अतः तत्र मृत्युः आगतवान् अहं न कारणं नास्मि इति वक्तुं मृत्युः अपि इदानीम् आगतः अस्ति
सः अवदत् हे सर्प सम्बोधनं हे सर्प नात्र अहं कारणं न वा त्वं मृत्युः उक्तवान् सर्पः हे सर्प अहं न कारणं त्वम् अपि न कारणं कालः अत्र कारणं वास्तविककारणं कालः अस्ति
तत्र भवान् उक्तवान् तत्र मृत्युः इति अहम् एव कारणम् इति किन्तु अहं न कारितवान् तत्र त्वमपि न कृतवान् किन्तु कः कारितवान् कालः एव कारितवान् कालः एव अत्र कारणं पुत्रस्य मरणस्य कारणं कालः एव
यतः तेन प्रेरितः अहं त्वां प्रेरितवान्
तत्र अहं प्रेरितवान् तत्र तेन इत्युक्ते
कालेन
अतः तत्र यतः तेन कालेन
कालेन प्रेरित अहं त्वां प्रेरितवान्
तत्र अहम् इति मृत्युः वदति कालेन अहं प्रेरितवान् अथवा प्रेरितः अस्मि, अतः अहं त्वाम् इत्युक्ते सर्पं सर्पं प्रेरितवान्. समीचीनं. यथा
यथा वायुः आकाशे स्थितान् मेघान् आकर्षति विकर्षति च तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च. उदाहरणं अस्ति आकाशे, आकाशे स्थितान् मेघान् आकर्षति विकर्षति.
तत्र किं वायुः किं करोति? प्रेरयति, मेघान् प्रेरयति खलु. अत्र गच्छतु, इत्र गच्छतु, इतः गच्छतु, ततः गच्छतु इति प्रेरयति वायुः.
वायुः
मेघान् मेघान् प्रेरयति. आकाशे स्थितान् मेघान्, आकाशे स्थिताः मेघाः द्वितीयविभक्ति बहुवचनं मेघान् आकर्षति.
आकर्षति विकर्षति.
हा तद्वत् एव,
तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च.
हा अतः कालः अपि अस्मान् सर्वान् प्रेरयति.
प्रेरयति यदा यथा यथा वायु वायुः प्रेरयति तथा कालः अस्मान् प्रेरयति.
तत्र वयं वयं कीदृशाः सन् स्मः? वयं मेघाः इव स्मः, आकाशे मेघाः इव स्मः.
मेघाः तेनैव कालेन जगत् इदं सृज्यते संह्रियते वा. तेन एव कालेन जगत् इदं सृज्यते संह्रियते वा.
तत्र किम् अस्ति? तत्र पूर्वं किम् उक्तं? तत्र मृत्युः किम् उक्तवान्? तत्र कालः एव मां प्रेरितवान्, मां प्रेरितवान् अपि अहं त्वां प्रेरितवान्, अतः तत्र पुत्रस्य मृत्युः अभवत्. कालः एव पुत्रस्य मृत्योः कारणम् इति. किन्तु केवलं तत्र मृत्योः कारणं न, किन्तु तत्र इदानीं किं वदति? कालः एव तत्र यद्यत् किमपि भवति जगति सर्वस्य कारणं कालः एव, अतः जगत् इदं
कालः
कालेन एव सृज्यते, कालेन एव संह्रियते. संह्रियते तत्र संहरणं वा अथवा तत्र सृष्टिः वा, तत्र कालेन एव भवति इति. अतः कालः एव तत्र कारणं सृष्टि अथवा संहरणं प्रति, तत्र कालः एव कारणं.
सर्वस्य कारणं कालः अस्ति.
हा सर्वस्य कारणं कालः एव. अतः एवं सति अस्यां स्थितौ यदि
एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्यैव न तु मम इति. सति एतत्
एवं सति इत्युक्ते अस्मिन् प्रसङ्गे एषा स्थितिः अस्ति, अस्यां स्थितौ तत्र तत्र किं कालः एव सर्वस्य कारणम् इति स्थितिः अस्ति चेत् तत्र दोषः कस्य भवति?
दोषः कस्यापि नास्ति, कालस्य एव करोति.
कालः एव सर्वं करोति, अतः तस्य एव दोषः
मम
दोषः
मम दोषः नास्ति
मम दोषः नास्ति अत्र इति सः वदति. समीचीनं महोदय. अतः तत्र मम दोषः मृत्युः इदानीं तत्र उक्तवान् तत्र मम दोषः नास्ति. सर्पः उक्तवान् मम दोषः नास्ति. इदानीं मृत्युः अपि उक्तवान् मम दोषः नास्ति, कालः एव इति. अतः इदानीं तत्र अग्रे शुभदा भगिनि. धन्यवादः महोदय. अग्रे शुभदा भगिनि.
तदेव कालसर्पः.
तत्र कालसर्पः न. इदानीं तत्र कालः आगच्छति. अस्तु, शुभदा भगिनि अग्रे.
तत् श्रुत्वा कालः एव तत्र उपस्थितः अभवत्. तस्य स्वस्य नाम स्वस्य नाम श्रुत्वा
तस्य दोषः तस्य एव दोषः इति श्रुत्वा
कालः तत्र उपस्थितः अभवत्.
तत्र आगतः तत्र आगतः
तत्र आगतः सः अवदत्, हे व्याघ, तस्य बालस्य मरणे न अयं पन्तकः न एषः मृत्युः न वा अहं कारणीभूताः. सः वदति, हे व्याघ, एतस्य बालस्य मरणस्य कृते न तु एषः सर्पः न तु
अयं पन्नगः सर्पः. समीचीनम्. अयं पन्नगः एषः सर्पः
एषः सर्पः न तु एषः मृत्युः न तु अहं
तत्र
एतेषु कोऽपि कारणीभूतः नास्ति.
तत्र कारणीभूताः कारणीभूतः कारणीभूताः कारणीभूतः इत्युक्ते तत्र कारणी तत्र तत्र कारणीभूतः यस्मिन् कारणं तत्र कारणं तत्र कारणीभूतः तत्र तस्य कारणम् इति तत्र ते अतः तत्र ते कारणाः कारणानि तत्र कारणम् अतः तत्र ते कारणानि तानि कारणानि न इति तत्र तादृश किमर्थः. किन्तु तत्र कारणमिति नपुंसकलिङ्गे अस्ति इति कृत्वा तत्र कारणीभूतः इति अस्ति. अतः ते कारणीभूताः न सन्ति. अतः तत्र न वा मृत्युः कारणं सर्पः कारणं न वा कालः कारणम्. अतः तत्र कारणं किम् इति इदानीं प्रश्नः उदेति खलु. अतः अग्रे
कारणं तु अनेन कृतं कर्म एव. कारणं तु एतेन बालेन किमपि कार्यं कृतं पूर्वकाले तदेव कारणं भवति एतस्य मरणस्य कृते.
तत्र अनेन बालेन एतेन बालेन कृतं कर्म तत् कर्म एव कारणं, न तु अहं न वा मृत्युः न वा सर्पः पुनगः. अग्रे श्लोकमस्ति.
यदनेन कृतं कर्म तेनायं निधनं गतः, विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्. यत् अनेन कृतं कर्म तेन अयं निधनं गतः. तेन बालेन यत् कोऽपि कृतं तत् कर्मम् एव तस्य मरणस्य तस्य निधनस्य कारणम् अभवत्.
वदतु भगिनि. विनाश
विनाशहेतुः कर्म अस्य विनाशहेतुः कर्म विनाशस्य हेतुः मनसि अस्ति चेत्
तत्र विनाशस्य हेतुः इत्युक्ते कारणं हेतुः इत्युक्ते कारणं विनाशस्य कारणम् अस्य कर्म तत्र विनाशहेतुः तत्र अस्य कर्म एव तस्य विनाशस्य हेतुः. सर्वे वयं सर्वे कर्मवशाः स्वयं तत्र कर्म कर्मणः अधीने तत्र अधीना हा बद्धाः बद्धाः स्म वयं सर्वे स्मः इति अतः तत्र यत् अनेन कृतं कर्म तेन अयं निधनं गतः तत्र विनाशहेतुः कर्म अस्य सर्वे वयं कर्मवशाः तत्र एतत्तु बहु सुन्दरमस्ति तत्र यत् अनेन कृतं कर्म तत्र कर्म इति प्रथमविभक्तौ अस्ति अनेन इति तृतीयविभक्तौ अस्ति पुनः तेन इति तेन कर्म इति यत् प्रथमविभक्तौ अस्ति इदानीं तत्र तेन इति तृतीयविभक्तौ अस्ति तेन अयम् अयम् इति प्रथमविभक्तौ अस्ति अयं निधनं गतः अयं गतः कुत्र गतः निधनं गतः इति तत्र तदनन्तरं विनाशहेतु कर्म अस्य कर्म एव सर्वे वयं कर्मवशाः स्मः इति
तेन अयं निधनं गतः इति कर्मणि प्रयोगः
हा सत्यं भगिनि अतः तत्र यत् अनेन कृतं कर्म अनेन यत् कर्म कृतं
तत्तु अवगतम्
तदपि तत्र कर्मणि एव खलु तत्र सः कर्म कृतवान् इति नास्ति तत्र अनेन एतेन कृतं कर्म तत् कर्म यत् अस्ति तेन कर्मणा अयं निधनं गतः तेन इत्युक्ते कर्म यत् अस्ति तेन कर्मणा
अयम् इत्युक्ते अयं बालः
बालः निधनं गतः दिवङ्गतः इति मृतः
महोदय अत्र निधनं दत्तं किन्तु कर्मकारणेन तु सर्वमेव निधनं तु एकम् एव कार्यमेव किन्तु सर्वं जगति
अत्र अत्र तदेव मूलविषयः अस्ति खलु भगिनि तत्र पुत्रस्य मरणम् इति एव मूलविषयः अस्ति खलु अपि तत् मूल सः किमर्थं मूलविषयः इत्युक्ते तत्र युधिष्ठिरः खिन्नः अस्ति खलु तत्र अतः तत्र सर्वे मृताः इति तत्र तेषां कारणम् अहमेव इति अतः इदानीं पुत्र एषः पुत्रः यस्य मरणं जातं तस्य मरणस्य कारणं किम् इति तत्र इदानीं तत्र कर्म एव कारणम् अतः तत्र सर्पकारणं नास्ति मृत्युः कारणं नास्ति कालः कारणं नास्ति किन्तु कर्म एव कारणम् इति
अस्तु अस्तु युधिष्ठिर खिन्न जातः सर्वं विनाश
तत्र अनेकानि मृतशरीराणि सन्ति खलु अतः तत्र एतत् सर्वं तस्य कृते एव खलु एषा कथा अतः तत्र अन्यत् सर्वम् अस्ति तत्र सृष्टिः वा संहरणं वा सर्वम् अस्ति किन्तु मूलविषयः अस्ति तत्र पुत्रस्य मरणं तस्य कारणम् अस्ति कर्म पुत्रेण कृतं कर्म तेन कर्मणा पुत्रः मृतः इति
अस्तु महोदय
अग्रे भगिनि छाया
छाया तपौ इव कर्मकर्ता च नित्यसम्बद्धौ भवतः इति छायातपौ छाया आतपौ द्विवचने अस्ति रामः रामौ इति अस्ति छाया आतपौ इव कर्मकर्ता च नित्यसम्बद्धः अभवत्
भवतः छाया अतपः आतपः इति
छाया इति आतपे आतपात् कारणात् छाया भवति तदेव तादृशं
यत्र आतपः अस्ति तत्र छाया अस्ति एव यत्र छाया अस्ति तत्र आतपः अस्ति अतः तत्र नित्यसम्बन्धः तत्र तयोः मध्ये सम्बन्धः भवति तत्र सर्वदा भवति केवलम् इदानीं भवति श्वः परश्वः न भवति इति न वक्तुं शक्नुमः खलु. नित्यसम्बन्धः अस्ति, तादृशः सम्बन्धः. तत्र सम्बन्धः ययोः मध्ये सम्बन्धः अस्ति, तौ द्वौ सम्बद्धौ इति. अत्र कर्म अपि कर्त किं भगिनि
महोदय, अत्र कीदृश सम्बन्ध इत्युक्ते कारणं
कारणसम्बन्ध. हा, तत्र कर्म कर्ता, कर्म अपि कर्ता. तत्र एषः तत्र यत् कृतं केन कृतं सः कर्ता, कर्ता करोति किं करोति तत् कर्म. अतः तयोः मध्ये कोऽपि विशेषसम्बन्धः अस्ति, सः सम्बन्धः नित्यसम्बन्धः. तत्र तत्र नित्यसम्बन्धः इत्युक्ते तत्र सर्वदा भवति, सर्वदा भवति. अतः तत्र सम्बन्धः, तयोः मध्ये सम्बन्धः अस्ति इति कृत्वा किं वदामः, तौ द्वौ कर्म कर्ता द्वौ नित्यसम्बद्धौ इति. नित्यसम्बद्धौ तत्र छाया तपौ नित्यसम्बद्धौ अपि कर्म कर्ता नित्यसम्बद्धौ.
आम् महोदय, यत् यत् सम्बन्धः
यः कोऽपि सम्बन्धः भवतु, तत्र कारणसम्बन्धः वा अथवा तत्र अन्यः सम्बन्धः वा भवतु, किन्तु यदि तत्र कोऽपि सम्बन्धः अस्ति तत्र द्वयोः मध्ये सम्बन्धः अस्ति चेत् तत्र द्वौ अपि सम्बद्धौ इति वदामः. हा, तत्र सम्बन्धः भिन्नं, सम्बद्धः भिन्नं. हा, तादृश समीचीनं भगिनि. हा, विशेषणं विशेष्यम् इव, विशेषणं विशेष्यं. तत्र विशेषणं विशेष्य तयोः मध्ये सम्बन्धः अस्ति खलु, अतः विशेषणं विशेष्यं तौ द्वौ सम्बद्धौ, यतोहि तयोः मध्ये विशेषणविशेष्यसम्बन्धः अस्ति इति. अस्तु, अग्रे तत्र, ओ अस्तु, समयः अपि जातः. अस्तु तर्हि तत्र अस्तु, किन्तु बहु समीचीनमस्ति. केवलम् अन्तिमभागः अस्ति तावदेव. अस्तु तर्हि तत्र इदानीं तत्र नित्यसम्बद्धौ इति तावत्पर्यन्तम् आगतः वयम् आगताः स्मः वयम्. अस्तु, समीचीनम्. अस्तु, प्रश्नः अस्ति वा? अस्तु तर्हि,
अत्र एनम् एनं दण्डयानि इति एनमस्ति महोदय, तस्य प्रातिपदिकं महोदय.
पुनः भगिनि, तत्र इदम् इति एव, इदम् इति एव, इदम् इदं, तत्र इमं स्थाने एनम् इति. हा, रूपद्वयम् अस्ति तत्र. सत्यं भगिनि, सूर्यकुमारी भगिनी, समीचीनं. हा, इदं पदस्य द्वितीयविभक्तौ तत्र रूपद्वयम् अस्ति, इमं वा एनं वा इति. हा, अतः तत्र, हा, तावदेव. तत्र, हा, तत्र अपि तत्र अनेन इति स्थाने तत्र येनेन इति अपि वक्तुं शक्नुमः, अपि इमौ इति स्थाने एनौ इति. अतः तत्र विकल्पः अस्ति तावदेव.
अपि च समाहितः इत्यस्मिन् क्रियापदं किं भवति, धातुः किं भवति?
हितः इति, तत्र हित् हितः समाहित आहितः
उपसर्गपूर्वकः
समहितः पठितः पठति तत्र अहति इति वा, तत्र अहति इति अहं चिन्तयामि भगिनि, तत्र अहति इति समाहितः किं महोदय?
न जानामि महोदय, कन्नड हि इति धातुः अस्ति वा?
अथवा अह अह इति प्रायशः तत्र, हा, दृष्ट्वा वदामि भगिनि. हा, समाहितः समीचीनः अस्तु
उपसर्गद्वयम् अस्ति महोदय सम् अपि
ओ अस्तु तदनन्तरम् इतः इति वा
आं महोदय तत् हि धातु अस्ति गति गतिवृद्धौ च इति अस्ति टु ग्रो टु इति अस्ति हिनोति हिनुतः हिनुवन्ति इति अस्ति अतः तत्र सम् उप सम् आन् उपसर्गः अहं चिन्तयामि समाहितः इति उपसर्गद्वयम् इति
अकारः अस्तु अस्तु धन्यवादः महोदय अस्तु अतः तत्र हि इति धातुः इति वा सत्यं सत्यं किन्तु उपसर्ग तत्र अस्ति खलु अतः
उपसर्गेण गतिभिन्ना भवति तेषाम् अर्थस्य
अर्थभेदः
भिन्ना भवितुमर्हति
भवितुमर्हति अतः अस्तु दृष्ट्वा पुनरेकवारं वदामि भगिनि अस्तु रघुपतिमहोदय भवानेव तत्र अन्ते शान्तिमन्त्र
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिश्शान्तिश्शान्तिः श्रीगुरुभ्यो नमः
धन्यवादः
धन्यवादः